ओम नमो भगवते वासुदेवाय। अथ सप्तदशोऽध्यायः। राजोवाच नागालयं रमणकं कस्मात् तत्याजकालीयः, कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम्। श्रीशुक उवाच उपाहार्यैः सर्पजनैर्मासि मासीहयो बलिः, वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः। स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि, गोपीथायात्मनः सर्वे सुपर्णाय महात्मने। विषवीर्यमदाविष्टः काद्रवेयस्तु कालियः, कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिं। तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः, विजिघांसुर्महावेगः कालियं समुपाद्रवत्। तमापतन्तं तरसा विषायुधः, प्रत्यभ्ययादुच्छ्रितनैकमस्तकः। दद्भिः सुपर्णं यदशद्दायुधः, करालजिह्वोच्छ्वसितोऽग्रलोचनः। तं तार्क्ष्यपुत्रः सनिरस्य मन्युमान्, प्रचण्डवेगो मधुसूदनासनः। पक्षेण सव्येन हिरण्यरोचिषा जघानकद्रुसुतमुग्रविक्रमः। सुपर्णपक्षापि हतः कालियोऽतीव विह्वलः, ह्रदं विवेश कालिन्द्यास्तदगम्यं दुरासदम्। तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम्, निवारितः सौभरिणा प्रसह्य क्षुदितो हरत्। मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते, कृपया सौभरिः प्राह तत्रत्य क्षेममाचरन्। अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति, सद्यः प्राणैर्वियुज्येत, सत्यमेतद्ब्रवीम्यहम्। तं कालियः परं वेद नान्यः कश्चन लेलीहः, अवात्सीद् गरुडाद्भीतः कृष्णेन च विवासितः। कृष्णं हृदाद्विनिष्क्रान्तं दिव्यस्रग्गन्धवाससं, महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम्। उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः, प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे। यशोदारोहिणी नन्दो गोप्यो गोपाश्च कौरव, कृष्णं समेत्य लब्धेः आसन् लब्धमनोरथाः। रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित्, नगागावो वृषावत्सा लेभिरे परमामुदम्। नन्दं विप्रा समागत्य गुरवः सकलत्रकाः, ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः। देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे, नन्दः प्रीतमना राजन् गासुवर्णं तदा दिशत्। यशोदापि महाभागा नष्टलब्ध प्रजा सती, परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहुः। ताम् रात्रिम् तत्र राजेन्द्र क्षुत्रिभ्याम् समकर्षिताः, ऊषुर्व्रजौ कसो गावः कालिन्द्या उपकूलतः। तदा शुचिवनोद्भूतो दावाग्निः सर्वतो व्रजम्, सुप्तम् निशीथावृत्य प्रदग्धुमुपचक्रमे। तत उत्थाय सम्भ्रान्ता दय्यमाना व्रजौकसः, कृष्णम् ययुस्ते शरणम् मायामनुजमीश्वरम्। कृष्णकृष्ण महाभाग हे रामामित विक्रम, एष घोरतमो वह्निस्तावकान् ग्रसते हिनः। सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो, न शक्नुमस्त्वच्चरणम् सन्त्यक्तुमकुतो भयम्। इत्थम् स्वजन वैक्लव्यम् निरीक्ष्य जगदीश्वरः, तमग्निमपि बत्तीव्रमनन्तोऽनन्तशक्तिधृक्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे दावाग्निमोचनम् नाम सप्तदशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।